पूर्वस्यां कक्षायां अस्माभिः हलसन्धि प्रकरणे स्तुत्व श्रुत्व संधि अधीतः इदानीं न पदान्ताट्टोरणाम् इति सूत्रे वयं स्मः. न इति न पदान्ताट्टोरणाम् न इति अव्ययं पदान्तात् टोः टोः इत्युक्ते पञ्चमी विभक्ति एकवचनम् अनाम् लुप्तषष्ट्यन्तः अत्र स्तोः स्तुनास्तुः इति सूत्रात् टुः इति मूले किम् अस्ति न पदान्ताट्टोरणाम् इत्यत्र मम समीपे पुस्तकम् स्तोः स्तुः अथ एव अस्तु अस्तु समीचीनम् अत्र एतत् अष्टमाध्यायस्य चतुर्थपादे एतत् सूत्रं विद्यते. अत्र स्तोः इति स्तोस्तुनास्तुः इति सूत्रात् स्तोः इति अनुवर्तते. कृपया अष्टाध्यायीं स्वीकुर्वन्तु. अष्टाध्यायी मध्ये अष्टमाध्यायस्य चतुर्थपादे तत्र स्तोः स्तुनास्तुः इत्यस्मात् स्तोः इति अनुवर्तते. तदनन्तरं ष्टुनाष्टुः इति सूत्रात् ष्टुः इति अनुवर्तते. न इति तु अत्र अस्मिन् सूत्रे एव अस्ति. एवम् न पदान्तात् पदान्तात् इत्युक्ते अपदान्तात् टवर्गात् उत्तरस्य नाम इत्येतस्मात् भिन्नस्य सकारस्य तवर्गस्य स्थाने ष्टुत्वं न भवति इति सूत्रार्थः. उदाहरणं पश्यामः. उदाहरणेन सम्यक् अवगमनं भवति. षट् सन्तः इति अस्ति. अत्र षट् इति सुप्तिगन्तं पदम् इत्यनेन नायस् इत्युक्ते कस्यन् एतत् नायस् कृते किं कुर्मः? सर्वं म्यूट् करोमि वा? षट् सन्तः षट्सन्तः इत्यत्र षट् इत्यस्य पदसंज्ञा अस्ति. अस्माभिः अत्र दृष्टं तत् षकारान्तः नित्यं बहुवचनान्तः षट्शब्दः. षट् इति प्रथमाभक्ति एकवचनं रूपम्. एवं षट् इत्यस्य पदसंज्ञा अस्ति. एवं तत् सुबन्तमस्ति. सुप्तिगन्तं पदम् इत्यनेन सुबन्तत्वात् पदसंज्ञा अस्ति. इदानीं स्तुनाष्टुः इति सूत्रमत्र प्रवर्तते. प्रथमं टकारेण योगे सति सकारस्य स्थाने प्राप्तस्य षकारस्य सकारः इत्यत्र सकारः अस्ति, सकारस्य स्थाने षकारः भवतु इति स्तुनाट्टुः इति सूत्रं वदति। तदा नपदान्ताट्टोरनाम् इति सूत्रम् आगत्य वदति अत्र अस्माभिः ष्टुत्वं न करणीयम्। किमर्थम् इति प्रश्नः। अत्र पदान्ते अत्र षट् इत्यस्य पदसंज्ञा अस्ति, पदान्ते विद्यमानात् टोः ष्टुत्वं न भवति इति सकारस्य स्थाने षकार आदेशस्य निषेधं करोति। षट्ते इत्यत्रापि एवमेव स्थितिः। एवम् अत्र नपदान्ताट्टोरणाम् इति सूत्रे नपदान्ताट्टोः किं भवति इति अवगतम् अस्माभिः। इदानीम् अनाम् इत्यत्र किम्, अनाम् इति किमर्थम् उक्तम् अस्मिन् सूत्रे, तद् अस्माभिः द्रष्टव्यम्। अत्र दलकृत्ये वयम् अत्र अस्मिन् सूत्रे अनाम् इति उक्तमस्ति। अनन्तरं प्रश्नद्वयमस्ति तत्र मूले किम् अस्ति, नपदान्तात्तोरणां पदान्तात् किम् ईटे, पदान्तात् किम् ईट्टे इति अस्ति। इदानीम् अत्र शङ्का जायते पदान्तादिति पदस्य प्रयोजनं किम्। तदा अस्माभिः किं क्रियते, पदान्तादिति पदं सूत्रात् निष्कास्यते। सूत्रात् यदि पदान्तादिति पदं निष्कास्यते न टोः अनाम् इति स्थितिः, न टोः अनाम्। इदानीं सूत्रार्थः कः, सूत्रार्थः कः, पदान्तादिति पदं तु नास्ति, एवं टोः ष्टुत्वं न भवति इति आगच्छति। पदान्ते वा अपदान्ते वा सर्वत्र टोः ष्टुत्वं न भवति इति आगच्छति। स्तोः ष्टुत्वं न भवति इति आगच्छति। तदा ईड् धातोः लट्लकारस्य प्रथमपुरुष एकवचनम् ईड् स्तुतौ इति एक ईडस्तुतौ वा किमस्ति ईड् ईड् धातुः अस्ति, तस्य ईड् ते इति स्थितौ तुनाष्टुः इत्यनेन तकारस्य स्थाने ईड् ते इत्यत्र तकारस्य स्थाने तकारः आदेशः प्राप्तः। यदि पदान्तादिति पदम् इदानीं नास्ति अस्माकं समीपे, तदा किं भवति, नटोः अनामित्येतावन्मात्रं सूत्रं स्यात्, तेन च अपदान्ते अपि टवर्गस्य परस्य टवर्गस्य ष्टुत्वप्रतिषेधः भवति। इदानीं प्रकृतसूत्रे किं भवति, अस्माभिः ष्टुत्वमत्र इष्टम्, ईट्टे इति रूपसिद्धिः अस्माभिः इष्टः। इदानीं किम् अभवत्, अत्रापि निषेधः आगतः। अतः पदान्ते एव निषेधः अपदान्ते निषेधः नास्ति इति वक्तुं न टोरणाम् इति सूत्रे पदान्ता इति पदम् अत्र निवेशनीयम् तदवश्यं भवितव्यम् इति अस्माभिः तत्र पाणिनिना सिद्धान्तितः. तत्र यदि एतदेव दलकृत्यम् इति उच्यते अस्माकं शास्त्रे व्याकरणशास्त्रे दलकृत्यं नाम सूत्रस्य प्रत्येकपदस्य प्रयोजनम् अवश्यं प्रयोजनम् अस्ति वा एतत् पदम् आवश्यकं सूत्रे भवितव्यं वा यदि सूत्रे एतत् पदं न स्यात् तर्हि किं स्यात् कुत्र दोषः स्यात् तद्दोषः अन्येभ्यः नियमेभ्यः निवारयितुं शक्यते वा एतादृशचिन्तनम् अस्माभिः क्रियते. यदि दोषनिवारणं न भवति असाधुप्रयोगः भवति तदा पदं किमपि अन्यत् पदम् अपेक्षितम् इति सिद्धान्तितः भवति. एतादृशचिन्तनानि महाभाष्ये पतञ्जलिकृतमहाभाष्ये भवति. किमर्थम् आवश्यकम् किमर्थं न इति अस्ति किमर्थम् अनाम् इति उच्यते किमर्थं तत्र लुप्तषष्टीकमस्ति इत्यादि विषयाः तत्र विद्यन्ते. सङ्ग्रहेण अत्र एतादृशलघुकौमुद्यादिग्रन्थेषु सङ्ग्रहेण प्रश्नद्वयं वा सिद्धान्तकौमुदी मध्ये तु प्रश्नद्वयं द्वयस्य स्थाने कदाचित् प्रश्नत्रयम् इत्यादिकं भवति. इदानीम् अत्र पदान्तात् किम् इति प्रश्ने कृते ईटे इति उक्तम् ईटे इत्यत्र दोषः भवति अस्माभिः तद् इदानीं ज्ञातम्. अनिष्टापत्तेः निवारणाय अत्र अपदान्तादिति उक्तम्. पदसंज्ञायाः अभावे ईड्ते इत्यत्र ष्टुत्वं भूत् इत्यत्र पदसंज्ञायाः अभावे ईड्ते इत्यत्र मया व्यत्यासेन उक्तः वा किमपि ईटे मूले किमस्ति ईडते इत्यवस्थायां डकारस्य पदान्तत्वाभावेन ष्टुत्वनिषेधाभावे ष्टुत्वेन तकारस्य टकारे चत्वेन डकारस्य टकारे सिद्धं रूपं श्रुतिं करोति तदर्थः किमपि सन्देहः अस्ति वा ईटे चक्रिण्डौकसे वा चक्रिण्डौकसे इत्यत्र नागतवान् इदानीं पूर्वं पूर्वपाठे वा ओ चक्रिण्डौकसे इत्यत्र अर्थः अस्तु एकविषयः पेष्टा तत् कदाचित् किं भवति अस्तु वदामि प्रथमं चक्रिण्डौकसे इत्यत्र अत्र चक्रिण् नाम किं हे चक्रधारिण् भवान् गच्छति धौकसे इत्यत्र प्रायः गत्यर्थकधातुः सः हे चक्रधारिन् भवान् गच्छति इति अर्थः. अन्यत् किं पृष्टम् पेष्टा इत्यत्र तत्र पिशिल्र सञ्चूर्णने इति एकः धातुः विद्यते पिशिल्र सञ्चूर्णने अत्र किं भवति तस्य धातोः पेश् धातो पिशिल्र धातोः तत्र तृच् प्रत्ययः, तृच् इति प्रत्ययः अस्ति, मूल तृचौ इति अनेन तृच् प्रत्ययः अस्ति। इदानीं कृ धातोः कर्ता इति अस्ति किल, एवमेव कर्ता इत्यत्र तृच् प्रत्ययः अस्ति। तद् कथम्? एवमेव पिशिलृ सञ्चूर्णने इति धातोः तृच् प्रत्यये कृते लुट् उत लुट्लकारः, इदानीं कर्ता कर्तारो कर्तारः इति लुट्लकारः अपि अस्ति। ज्ञातं वा? कर्ता इति रूपसिद्धिः लुट्लकारे, कर्ता इति रेकग्नैज् कर्ता, कर्ता नामपदं तत्र कर्ता कर्तारो कर्तारः इति लुट्लकारस्य रूपाणि, एवं तृच् प्रत्ययस्यापि रूपाणि कर्ता। कर्ता नाम यः कार्यं करोति सः कर्ता। हा, तादृश अर्थः कथं लभ्यते? तृच् प्रत्ययेन लभ्यते। तृच् प्रत्ययः कार्यं करोति कर्ता, पाठं पठति पठिता, एवं एतादृश अर्थः तृच् प्रत्ययेन लभ्यते। एवं तत्र अवान्तरप्रक्रियायां तत्र पिश् पिश् धातुः पेश् इति भवति, गुणः भवति, एवं पेश् ता इति भवति। तदा हा दट् विच् पेष्टा इति यः कार्यं करोति पिशुल् सञ्चूर्णने नाम दट् विच् ग्रैण्ड्स् इति भवति। इति एकमर्थं तत् तृच् प्रत्ययस्य यः वन् हू ग्रैण्ड्स्, लुट् प्रत्ययस्य शल् ग्रैण्ड्। लुट् प्रत्ययस्य भविष्यत् अस्ति किल, भविष्यदर्थः, एवं शल् ग्रैण्ड्। देर् आर् टु मीनिङ्ग्स् फार् पेष्टा, वन् इस् ग्रैण्डर्, वन् हू ग्रैण्ड्स्, द अदर् वन् इस् लुट् प्रत्यय, विच् मीन्स् फ्यूचर् टेन्स् मीनिङ्ग् शल् ग्रैण्ड्। द्वितीयप्रश्नः श्रूयते, अवश्यं श्रूयते। अत्र किं भवति इत्युक्ते, इदानीं प्रथमं किं तत्र एकं तत्र विभागद्वयं कर्तव्यम्। अत्र पश्यन्तु, ईड् ते, एकनिमिषं वदामि, तद्विषये वदामि। ईड् ते, ईड् ते इति भवति प्रथमम्, अनन्तरम् ईड् इत्यस्य डकारस्य चर्त्वं भवति। चर्त्वं नाम प्रथमाक्षरं, तद् खरिच इति सूत्रं विद्यते, तद् अग्रे आगच्छति। चर्त्वं यदा आगच्छति तदा ईट् प्लस् ते इति भवति। इदानीं स्तोष्टुनाष्टुः इति प्रवर्तते वा न वा? प्रवर्तते, अतः ईट्टे। अवश्यं भवति। तत्र किम् अस्ति इत्युक्ते, प्रथमं किं भवति, खरिच इति सूत्रं, सूत्रसङ्ख्या किम् अस्ति, खरिच इति सूत्रसङ्ख्या किम् अस्ति इति द्रष्टव्यम्। एट् फोर् फिफ्टि फैव् वा फिफ्टि फोर् वा, यत्किमपि भवतु, 8455 खरीच इति सूत्रम्। स्टुनाष्टुः इति सूत्रम् 8440 41 वा अस्तु 41 स्टुनाष्टुः करीच 54 इदानीं स्टुनाष्टुः किं करोति तत्र अष्टमाध्यायस्य पूर्वत्रासिद्धम् इति भवति अष्टमाध्याये ओके 54 55 वाट किमपि भवतु स्टुनाष्टुः किं चिन्तयति स्टुनाष्टुः किं चिन्तयति अहमेव अष्टाध्याय्याः अन्तिमं सूत्रं मम अग्रे कोऽपि नास्ति अहं मम कार्यम् अवश्यं करोमि इति स्टुनाष्टुः चिन्तयति पूर्वत्र असिद्धम् एवमेव किं भवति खरीच इत्यस्य असिद्धत्वात् किं भवति स्टुनाष्टुः इत्यनेन तकारस्य तकारः तदनन्तरं डकारस्य तकारः ईट इति अवगतं वा हा तदेव एकवारं जस्तसन्देह सूत्रं तु षष्ठाध्याये अस्ति तद् एकवारं द्वितीयपादे अस्ति जस्तसन्देहसूत्रम् अष्टमाध्यायस्य द्वितीयपादे अस्ति चतुर्थपादे नास्ति इदानीम् अत्र प्रवृत्तिः अत्र प्रवृत्तिः कस्य सूत्रस्य इति प्रथमं प्रश्नः इदानीं स्थिति प्रथमं धातुः कः इति द्रष्टव्यम् ईड् धातुः ईड् स्तुतौ इति धातुः तत्र गौरी अम्बाम् अम्बुरुहाक्षीम् अहम् ईडे इति शङ्कराचार्यस्य गौरीदशकम् इति श्लोके अस्ति ईडे इति श्लोकं तु अस्माभिः ईडे इत्यादिकम् अस्ति एवम् ईड् स्तुतौ इति धातुः तत्र लट्लकारे तकारादेशे कृते शप् इत्यादि लुक् क्रियते तदनन्तरं किं रूपं सिध्यति इत्युक्ते अत्र खरीच इत्यस्य असिद्धत्वात् प्रथमं किं भवति स्टुनाष्टुः इत्येव भवति ईड् ते इत्यत्र तकारस्य किं भवितव्यम् स्थानिकः स्तोस्टुनाष्टुः तकारस्य तकारः भवितव्यम् ईड् वा भवतु ईट् वा भवतु तदेव भगिनी उक्तवती हा इदानीं किं खरीच स्टुनाष्टुः किं चिन्तयति अहमेव अन्तिमं सूत्रम् अतः मम कार्यमेव अत्र प्रथमम् इति आगत्य प्रथमं कार्यं करोति खरीच इति सूत्रमपि किं चिन्तयति यत्किमपि भवतु अहं तत्र यद् डकारः अस्ति तस्य टकारम् अहं करोमि इति गत्वा टकारं करोति एवं प्रथमं स्टुनाष्टुः इत्यस्य प्रवृत्तिः अनन्तरं खरीच इत्यस्य प्रवृत्तिः यदि एतद् अष्टमाध्यायस्य चतुर्थपादे इत्युक्ते सपाद सप्ताध्यायी मध्ये स्यात् तर्हि विप्रतिषेधे परं कार्यम् इत्यनेन द लेटर् सूत्र शुड् हव् प्रिवेल्ड् ओवर् दिस् वन् सो प्रीवियस् सूत्र विप्रतिषेधे परं कार्यं प्रायः तत्सूत्रमागतं वा पूर्वं नागतं विप्रतिषेधे परं कार्यम् इति एकं सूत्रं विद्यते तत्र किं कः नियमः इति संक्षेपेण वदामि यदि सपादसप्ताध्यायी इत्युक्ते 714 मध्ये तत्र अष्टमाध्यायस्य प्रथमपाद सपादसप्ताध्यायी मध्ये यः कोऽपि सूत्रं भवति एतादृश किं डैलमा भवति चेत् प्रथमं किं भवितव्यम् अस्य सूत्रस्यापि प्रवृत्तिः अस्ति अन्यत् सूत्रस्यापि प्रवृत्तिः यदा अस्ति तदा नियमः अस्ति विप्रतिषेधे यदा तुल्ययोगे सति तुल्यबलविरोधे सति किं भवति परं कार्यम् अस्माभिः परसूत्रमेव स्वीकर्तव्यं तदेव भवति परसूत्रस्यैव कार्यं स्वीकर्तव्यम् इति पाणिनिना विप्रतिषेधे नियमकृतः. परन्तु सपाद इदानीं त्रिपादी मध्ये, एतत् सूत्रं तु त्रिपादी मध्ये अस्ति, त्रिपादी मध्ये यानि सूत्राणि सन्ति तेषाम् एषः नियमः न नास्ति, यतोहि ते परस्परम् असिद्धत्वम् अस्ति तेषाम्. पूर्व तत्र सपादसप्ताध्यायीं प्रति अपि असिद्धमस्ति, एतेषां परस्परमपि असिद्धमस्ति. अतः अत्र खरीचा इत्यस्य असिद्धत्वात् स्थूनाष्टुः किं करोति, खरीचा इति सूत्रमेव नास्ति, पाणिना खरीचा इति सूत्रमेव न कृतम् इति स्थूनाष्टुः चिन्तयति. स्थूनाष्टुः दृष्ट्या खरीचा नास्ति, अतः अत्र आगत्य करोति. खरीचा इति सूत्रं तत् किम, तदपि तस्य कार्यस्य प्रवृत्ति अनन्तरमपि कर्तुं शक्यते. डकारस्य टकार एवम् ईट्टे इति आगच्छति. मया अस्मिन् स्लैड् मध्ये ईड्ते इत्येव दर्शितम्, यतोहि तकारस्यैव टकारः इति स्तुत्तसन्धि विषयमेव दर्शनीयम् इति दृष्ट्या अत्र केवलम् ईड्ते इति दर्शितम्. सुजाता भगिनी अवगतम्? अस्तु वा, ओ इष्टरूपम् अनिष्टरूपम् अस्तु. अत्र शिष्टैः यः प्रयोगः कृतः स एव इष्टरूपः. शिष्टाः के? तर्हि प्रश्नः आगच्छति, शिष्टाः के? शिष्टाः नाम ऋषयः, अस्माकं ऋषयः. तत्र वेदवाङ्मये यदि तत् शब्दमस्ति स एव शिष्टप्रयोगः. तत्र आर्षत्वात् अपौरुषेयत्वात् वेदस्य शिष्टप्रयोगत्वं स्वीक्रियते. कदाचित् महाकविप्रयोगः प्रयोगाः अपि शिष्टप्रयोगत्वेन स्वीक्रियन्ते. इष्टः अनिष्टः तु तद्दृष्ट्या स्वीक्रियते. वाट् इस् रिक्वैर्ड्, वाट् इस् दट् वि प्रिफर्, आर् वाट् इस् प्रिफर्, प्रिफर् इति आङ्ग्लशब्दम् अस्माभिः तत्र नैव उपयोक्तुं शक्यते. प्रिफर् इत्युक्ते यु केन् आल्सो नाट् प्रिफर्, एतत् सर्वं न भवति. तत्र किम् अस्ति, तत्र लघुमञ्जूषा इति एकः ग्रन्थः अस्ति, तत्र किञ्चित् शिष्टाः के इति प्रश्नः आगच्छति. शिष्टाः के? तत्र यः यथार्थवक्ता, इदानीं तत् अत्र प्रष्टुं शक्यते ऋषीणामेव शिष्टत्वं किमर्थम् अङ्गीक्रियते, मम गुरवः केऽपि सन्ति ते अपि शिष्टाः, ते व्याकरणं सम्यक् जानन्ति, तेषामपि शिष्टत्वम् अङ्गीकर्तव्यं, यदि ते प्रयोगं कुर्वन्ति तर्हि शिष्टत्वेन अङ्गीक्रियते इति सर्वे प्रश्नं पृच्छन्ति वदन्ति च. परन्तु अत्र किम् अस्ति, अस्माभिः धर्मशास्त्रविषयः एतत्, अत्र ऋषयः अस्मिन् कलियुगे किमर्थं न भवन्ति, ऋषयः किमर्थं न भवन्ति इत्युक्ते अत्र इदानीं कलियुगे अस्मिन् काले एतादृशपरिस्थितिः नास्ति अत्र ऋषीणां वासं कर्तुं वा किमपि ऋषीणाम् अनुष्ठानं कर्तुं वा किमपि स्थानं वा तत्र सर्कम्स्टेन्सस् वा किमपि नास्ति. अतः आपस्तम्भस्य धर्मशास्त्रे उक्तं तत्र इतः प्रभृति ऋषयः न सम्भवन्ति इति. तत्र अन्तिमऋषिः इति अस्माभिः कः इति स्वीकर्तुं शक्यते चेत् पतञ्जलिः, पाणिनिः पतञ्जलिः, पतञ्जलिः पर्यन्तं स्वीकर्तुं शक्यते. तदनन्तरं शङ्कराचार्यादयः ते तु सन्न्यासिनः यतयः सञ्जाताः, ते न ऋषयः. अतः ऋषीणाम् अत्र ऋषीणामपि किमर्थं ऋषीणाम् एतादृश ऋषीणां शिष्टत्वम् अङ्गीक्रियते, एतादृश ऋषीणां वाग्व्यवहारस्य शिष्टत्वं कथम् अङ्गीक्रियते इति प्रश्ने तत्र लघुमञ्जूषायाम् उक्तमस्ति, एते यथार्थवक्तारः, एते ऋषयः यथार्थवक्तारः। यथार्थवक्ता नाम किम्? आप्त ते आप्ताः भवन्ति। आप्तः नाम यथार्थवक्ता इति उक्तं। तत्र आप्तवाक्यं शब्दः। आप्तः नाम किम्? यथार्थवक्ता। यथार्थवक्ता इत्युक्ते कः? रागादिवशात्, सम्यक् शृण्वन्तु, रागादिवशात् यः न अन्यथावादी इत्युक्ते, इदानीं वैद्यः अस्ति, दैवज्ञः अस्ट्रालजर् सः अपि अस्ति, भवन्तः दैवज्ञस्य समीपं गच्छन्ति चेत् इदानीं सम्यग्रीत्या सः ज्योतिषशास्त्रस्य अध्ययनम् इत्यादिकं कृतवान् चेत्, शास्त्रादिकं तस्य उपासनादिकं भवति चेत्, सः किमपि अनिष्टं पश्यति भवज्जातके, तथापि सः वदति अस्तु, सः वदति वा वक्तुमर्हति, अस्तु भवन्तः एतादृशदेवोपासनां कुर्वन्तु, भवज्जीवने किमपि क्लेशः नागच्छति इत्यादि वदति। किमर्थं सः वदति एवं? सः जानाति सत्यं किम् इति, परन्तु तथापि सः एवं वदति यतोहि सः रागादिवशात् सः रागेण प्रवृत्तः, सम्बन्ध दैवज्ञस्य भवतः सम्बन्धः रागप्रवृत्तः सम्बन्धः, सः भवन्तम् इच्छति, अतः रागप्रवृत्तसम्बन्धात् सः किञ्चित् तस्य वचने किञ्चिदिव स्खलनं भवति। कदाचित् इदानीन्तनकाले डाक्टर् यद्यपि वैद्याः अपि यद्यपि वयं सः जानाति इदानीम् ICU मध्ये एषः प्रायः न जीवति इति जानाति सः, तथापि किं वदति सः? प्रायः एतत् लेट् अस् होप् फार् द बेस्ट् इत्यादिकं वदति। किमर्थं? तद् रागादिवशात् सः प्रवृत्तः, परन्तु ऋषयः रागादिवशात् अपि अन्यथा किमपि न वदन्ति, रागादिवशात् ते न तेषां रागादिकं न भवति। अतः रागादिवशात् यः अन्यथावादी अस्ति, अपि च यः तत्त्वं सम्यक् जानाति सः एव। इदानीं कोऽपि इदानीन्तनकाले रागादिकं त्यक्त्वा तत्र जीवन्मुक्तः सन्तः कोऽपि अस्ति चेत् तस्य शिष्टत्वम् अङ्गीक्रियते वा इति प्रश्नः। शिष्टत्वम् अङ्गीक्रियते व्याकरणशास्त्रे, यदि तस्य व्याकरणज्ञानम् अस्ति चेत्। एवं तत्त्वज्ञानी अपि भवेत्। तत्त्वज्ञानी इत्युक्ते हि शुड् अण्डर्स्टाण्ड् द सब्जेक्ट्। तत्त्वज्ञानी सम्यक् कास्यम् इत्युक्ते तत्र उक्तं लघुमञ्जूषायां, यः सर्वं ज्ञानं कास्येन जानाति, वन् हू नोस् दि नालेज् इन् इट्स् एण्टैरिटि एण्ड् हू डस् नाट् स्पीक् एनिथिङ्ग् कन्सिडरिङ्ग् दि अटाच्मेण्ट् वित् द आपोजिट् पर्सन् आर् वितौट् एनी अटाच्मेण्ट् हिस् वर्ड्स् आर् स्पोकन्। एतादृशवचनानि इदानीन्तनकाले न भवन्ति, अतः ऋषयः इदानीन्तनकाले न सम्भवन्ति। अत एव व्याकरणशास्त्रे अपि शिष्टाः नाम तत्र वेदवाङ्मये ये शब्दाः आगताः तेषामेव साधुत्वं, तेषामेव शिष्टत्वं। शिष्टप्रयोगः नाम तत्र ऋषिवाल्मीकिव्यासादीनां प्रयोगः, तत्रापि अपाणिनीयप्रयोगः भवन्ति, तत्र आर्षप्रयोगः अतः स्वीकर्तुं शक्यते इति अस्माभिः उच्यते कदाचित्। इदानीम् आर्षत्वात् साधुः इति उच्यते, अतः अनिष्ट इष्टनिर्णयः तु एतादृशरीत्या क्रियते। किञ्चित् एतद् बहुशास्त्रसम्बन्धी विषयमेतत्, यथामति अहम् उक्तवान्। इदानीं नपदान्तात् तोरणम्, अनां नवति नगरीणामिति वाच्यम्। इदानीं वार्तिककारः किं करोति? एकं वार्तिकं योजयति अस्मिन् सूत्रे। अत्र भवद्भिः उक्तम् अनामिति उक्तम्, आनम् इति पूर्वं करेक्ट् कृतं किल, पुनः आगतम्। अनाम नवति नगरीनाम इति वाच्यम् अत्र सर्वत्र अस्ति। अस्तु अहम् अनन्तरं करोमि। अनाम इदानीं वार्तिककारः किं करोति, उक्तानुक्त दुरुक्तानां वार्तिकस्य लक्षणं किम्, अस्माभिः उक्तानुक्त दुरुक्तानां यत्र पठ्यते स एव वार्तिकम् इति उच्यते, किमपि लक्षणं तादृशलक्षणं पठितम्। इदानीं वार्तिककारः वदति केवलम् अनामिति स्वीकरणेन प्रायः इष्टसिद्धिः न भवति, नवति नगरी इत्यादि शब्दानामपि योजना करणीयम्। इत्युक्ते सूत्रं कथं भवेत्, नपदान्ताट्टोरणाम् अनामित्यत्र अस्ति किल, अनाम् नवति नगरी इति भवितव्यम्, नपदान्ताट्टोरणाम् नवति नगरी इति भवितव्यम् इति वार्तिककारः वदति। तत्र उदाहरणं प्रदर्शयति, षष्यु प्लस् नाम् इत्यत्र षड् नाम् इति जलां जशोन्ते इति जस्त्वम् भवति, षड् नामिति इदानीं ष्टुत्वं भवति, षण्णामिति रूपसिद्धिः भवति, षण्णामिति रूपसिद्धिः अत्र मध्ये स्तुनाष्टुः इति अस्ति। स्तुनाष्टुः कथं भवति, यदि अपदान्ते निषेधः अस्ति चेत्, न पदान्तात्तोरणामिति निषेधः अस्ति चेत् अत्र ष्टुत्वं न स्यात्। अतः अस्माभिः षण्णामिति रूपं तु सर्वत्र अस्ति, षण्णामिति रूपसिद्ध्यर्थम् अस्माभिः किं करणीयम्, यथा षण्णामिति भवति तथा षण्णवतिः इत्यत्रापि अस्माभिः स्वीकर्तव्यम्। षण्नगर्यः इत्यपि रूपमस्ति, षण्नगर्यः षण्नगर्यः इत्यपि रूपमस्ति, तदपि स्वीकर्तव्यम्। तत्र उट्टङ्कनदोषाः सन्ति, कृपया क्षम्यताम्। इदानीं षण्णाम् इत्यत्र नपदान्ताट्टोरणाम् इति नामवर्जितस्य स्तुत्वनिषेधः विहितः, अतः तत्र स्तुत्वं भवति, एवं निषेधः न प्रवर्तते, षण्णामिति रूपसिद्धिः भवति। षण्णवतिः इति इत्यत्रापि तत्र यदि नवति नगरी इति पदम् अत्र न युज्यते तर्हि अत्रापि स्तुत्वं न स्यात्, अतः नवति नगरी इति शब्दस्यापि योजना करणीया इति वार्तिककारः वदति। षण्णगर्यः इति रूपसिद्धिः अत्र स्तुनाष्टुः इत्यनेन नकारस्य नकारादेशति एवं भवति। षण्णगर्यः षण्णगर्यः इति अत्र सर्वं दोष टवर्ग मूले सम्यगस्ति पुस्तके। अग्रिमसूत्रं तोः शि, एतदपि स्तुत्वनिषेधसूत्रम्। तोः शि इदानीं तवर्गस्य शकारे परे न स्तुत्वम्, अस्माभिः तत्र स्तुत्वसन्धि मध्ये पूर्वपरनियमः न कृतः, योगे इति कृतम्। इदानीं तवर्गस्य शकारे परे न स्तुत्वम् इति, एवं परे इति अत्र उच्यते, अत्र अवधेयांशः अत्र परे इति उच्यते, अतः सन् एतदपि निषेधसूत्रमेव वर्तते, परे एव भवेत् सकारः। एवम् अत्र उदाहरणं किम् अस्ति, सन् षष्ठः वा, सन् षष्ठः इत्यत्र तवर्गस्य सकारः, इदानीम् अत्र स्तुत्वः भवति वा इति प्रश्ने कृते सन् षष्ठः इत्येव प्रयोगः अस्ति, अत्र स्तुत्वं न भवति एवं नकारस्य स्थाने नकारस्य स्थाने नकारादेशः न भवति न भवति तोषिः इति निषेध सूत्रम्। इदानीम् अग्रिम सूत्रं प्रति गच्छामः, जस्तसन्धि। तत्र झलां जशोन्ते प्रसिद्धं सूत्रं, सर्वे जानन्ति नियमम्। उदाहरणानि तु बहूनि सन्ति। झलां जशोन्ते अत्रापि मुख्यं प्रमुखतया अस्माभिः किं पदान्ते झलां जशस्युः, झल् वर्णाः के अत्र प्रत्याहारे समाविष्टाः वर्णाः, झल् जबगडद इत्यादि इत्यादि वर्णाः शससर् हल् पर्यन्तम्, एवम् एते वर्णाः सङ्गृहीताः। जश् वर्णाः इत्यत्र जबगडद इत्युक्ते वर्गस्य तृतीयवर्णाः। अन्ते पदान्ते इत्येव स्वीक्रियते, पदान्ते इत्येव स्वीक्रियते। पदान्ते झलां जशस्युः, पदान्ते नाम किं? पदत्वं स्यात् तस्य। एवं कोष्टकम् एवं विद्यते। वागीशः इति उदाहरणमस्ति अत्र। वाक् इत्यस्य इदानीं वाच् शब्दः, चकारान्त वाच् शब्दः। वाच् शब्दस्य प्रथमाविभक्त्यैकवचनं रूपं वाक्, वाक् वाचौ वाचः इति भवति। एवं वाक् इत्यस्य पदत्वं विद्यते। प्रकृति प्रकृतिः प्लस् प्रत्ययः इस् इक्वल् टु पदम् इति इक्वेशन् अस्ति। एवं वाच् इति प्रातिपदिकं रूपं सुप्रत्ययस्य योगेन वाक् इति रूपम् आगतम्। एवं वाक् इति शब्दं पदम् अस्ति। किं कीदृशं पदम् इति प्रश्ने कृते सुबन्तं सुबन्तं सुप् सुप्तिगन्तं पदम् इति पदसंज्ञा अपि तस्य अस्ति। इदानीम् अस्य पदत्वमस्ति, जस्वसन्धेः अर्हत्वमस्ति। पदान्ते पदान्ते स्थितस्य झल्वर्णस्य ककारः झल्वर्णः, झल्वर्णस्य जश् भवति। जश् इत्युक्ते इदानीं कस्य आदेशः भवति? स्थानेऽन्तरतमः इति अस्माभिः परिभाषा स्मर्तव्या। ककारः अकूहविसर्जनीयानां कण्ठः। एवं कण्ठ्यवर्णेषु यः जश्वर्णः अस्ति तादृशजश्वर्णस्यैव अत्र आदेशः भवति। ग एवं ज्ञायते। एतत् किञ्चित् भवन्तः जानन्ति इति कारणात् किञ्चित् वेगेन गच्छामि। यरोऽनुनासिके अनुनासिको वा, अत्र यरः अनुनासिके अनुनासिको वा, यरः अनुनासिके अनुनासिको वा इति पदचतुष्टयं चत्वारि पदानि सन्ति। यरः इति षष्टीकवचनं, अनुनासिकः अनुनासिके वा, अनुनासिके इति सप्तमी एकवचनं, अनुनासिकः इति प्रथमा एकवचनं, वा इति विकल्पः। वा नाम किं? नवेति विभाषा इति सूत्रमस्ति। वा नाम विकल्पः आर् चाय्स् अस्ति इति उच्यते। कर्तुमपि शक्यते न कर्तुमपि शक्यते। संहिता अत्र कर्तुमपि शक्यते, संहितां विनापि स्थापयितुं शक्यते। इदानीम् एतद् मुरारिः इति स्थिते एतन्मुरारिः इत्यपि वक्तुं शक्यते, एतद् मुरारिः इत्यपि वक्तुं शक्यते। तस्यैव वा इति अव्ययम् अस्ति। इदानीं विधिसूत्रमस्ति एतत्। नपदान्तात् इति सूत्रात् पदान्तस्य इति अनुवृत्तिः भवति। पदान्तस्य अनुनासिके परे अनुनासिकः वा स्यात्। कस्य स्थाने इत्युक्ते यरस्थाने। यरः नाम किम्? यर् नाम यर् वर्णः। अत्र हयवरट् इत्यत्र य हय हकारं विना सर्वे व्यञ्जनानि हयवरट् इत्यत्र स्वीक्रियते। एतन्मुरारिः इत्यत्र एतद्मुरारिः इति प्रथमं एतत् प्लस मुरारिहि एतत् एते एतानि इति पदत्वं विद्यते एतत् इत्यस्य एतद् इति भवति जस्तसन्धिः भवति इदानीं एतद् मुरारिहि इति स्थितिः एतद् मुरारिहि इति स्थितौ किं भवति अत्र यरोरुनासिके अरुनासिको वा इति सूत्रस्य प्रवृत्तिः अस्ति सूत्रं पश्यति विकल्पः अस्ति अस्तु यदि प्रयोक्ता संहितां इष्यति सः किं करोति एतन्मुरारिः इति प्रयोगं करोति एवं स्थाने अत्र यरस्थाने यरस्थाने अनुनासिकवर्णः इति उक्तः इदानीं कस्य अनुनासिकवर्णः नाम पञ्चवर्णाः सन्ति अनुनासिकवर्णाः के अनुनासिकवर्णाः अत्र न्यमगणनम् अपि अस्ति अनुस्वारस्यापि नासिक सर्वमस्ति इदानीं कः वर्णः अत्र स्वीकर्तव्यः इति प्रश्ने कृते स्थाने अन्तरतमः यस्य उच्य यस्य स्थानं तस्यैव अनुनासिकं वक्तव्यम् इदानीं लृतुलसानां दन्ताः इति दकारस्य तकारस्य दन्त्यस्थानं विद्यते अतः दन्तस्थानं विद्यते अतः किं भवति नकारः एव स्वीक्रियते यदि वाग्मूलम् इत्यत्रापि एवमेव भवति प्रत्यये भाषायां नित्यम् एतदपि कुर्मः प्रत्यये भाषायां नित्यम् इति नित्यम् इति सूत्रेण किं भवति एतद् वार्तिकमस्ति वार्तिकारः किं करोति कदा कुत्रचित् अनुनासिकसन्धिः नित्यः विकल्पः नास्ति इति वार्तिकारः वदति कुत्र नित्यः इति प्रश्ने कृते यदा परवर्णः यदि प्रत्यय परवर्णे परपदं तत्र प्रत्ययः अस्ति चेत् तदा एतत् नित्यं भाषायां नित्यं भाषायां नित्यं तत्र भाषायां नित्यम् इत्युक्ते लौकिकप्रयोगे नित्यं छन्दसि तु नित्यं न इति छन्दसि पुनः विकल्पः इदानीं भाषायां नित्यं भाषायां नाम लौकिकसंस्कृतं वैदिकसंस्कृतम् इति अस्ति वैदिकप्रयोगे संस्कृतं नाम प्रयोगः वैदिकप्रयोगे विकल्पमेव अस्ति लौकिकप्रयोगे किं भवति नित्यं भवति इदानीम् उदाहरणं पश्यामः तत्र किम् अस्ति उदाहरणं मूले ओ चिन्मयं तन्मात्रम् अस्तु इदानीं तद् तन्मात्रम् इत्यत्र प्रथमं तत् मात्रम् इति भवति तत् मात्रम् इत्यस्य तद् मात्रम् इति जस्वसन्धिः प्रवर्तते एवं तद् मात्रम् इत्यत्र यरोऽनुनासिके अनुनासिको वा इत्यनेन विकल्पेन यरस्थाने अनुनासिकादेशः प्राप्तः तस्य अपवादत्वेन इदं वार्तिकं प्रवर्तते प्रत्यये भाषायां नित्यम् इदानीं कुत्र प्रत्ययः किमपि न दृश्यते इत्युक्ते मात्रम् इति शब्दः मात्रच् प्रत्ययात् आगतः अतः मात्रम् इत्यत्र अनुनासिकवर्णः मकारः यः अस्ति सः प्रत्ययस्थ अनुनासिकवर्णः अतः मात्रच् इति कश्चन प्रत्ययः अस्ति यदा यदि तत्र प्रत्ययत्वात् अत्र अनुनासिकः नित्यः अनुनासिक अतः तन्मात्रम् इति प्रयोगः एव करणीयः न तु तन्मात्रम् इति व्यस्तप्रयोगः न करणीयः इति वार्तिकं वदति एवमेव चिन्मयम् इत्यत्रापि चित् प्लस् मयम् इति अस्ति मयट् इति प्रत्ययः अत्र मया न दर्शितं तद् मयट् इति प्रत्ययः अस्ति चित् प्लस् मयं चित् प्लस् मयं तदनन्तरं मयट् प्रत्ययस्थमकारस्य अत्र सत्त्वात् किम् अत्र यरस्थाने नित्यमनुनासिक आदेशः भवति एवं चिन्मयः इति रूपः प्रयोगः जायते अस्तु समयं किम् समयम् अभवत् वा ओ अस्तु किञ्चित् विलम्बेन प्रारब्धः अहम् लागिन् कृत्वा किं कृतवान् अद्य लागिन् कृत्वा निद्रां कृतवान् दशनिमिषानि लागिन् कृत्वा निद्रां कृतवान् वस्तुतः स एव अनन्तरं दृष्टवान् सपादनववादनम् अभवत् किं दिनद्वयात् निद्रा एव नास्ति अतः अस्तु किमपि सन्देहाः सन्ति वा सन्देहः अस्ति वा एतावत्पर्यन्तं सम्यक् अवगतं वा हल्सन्धौ हल्सन्धिप्रकरणे अवगतम् यदि प्रश्नाः सन्ति चेत् इदानीं साक्षात् प्रष्टुं शक्यते वेबिनार् अस्ति अतः सर्वे कृपया तस्मिन् प्रश्नाः सन्ति चेत् अत्र साक्षात् पृच्छन्तु इति प्रार्थना येनाक्षरस्मां नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिने ये नमः येन धौतागिरः पुंसां विमलैशब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिने ये नमः नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं राम 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 सर्वेभ्यः शुभरात्रि धन्यवादाः किं कर्तव्यं प्रथमं रेकार्डिङ्ग् स्टार्ट् रेकार्डिङ्ग् पट्टवेल्यः सरि